इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी वित्तमन्त्र्याः निर्मला सीतारामन वर्यायाः आयव्ययक भाषणम् आर्थिक परिवर्तनस्य समग्रं ब्लूप्रिंट इति अस्तीति अकथयत्। लोकसभायाम् औद्योगिक सम्बन्ध संहितायाः संशोधनात्मक विधेयकं स्वीकृतम्, यस्योद्देश्यमस्ति पूर्वतन श्रम नियमानां निरन्तरतायाः विषये भविष्ये कस्यापि जटिलतायाः निवारणम्। रक्षाधिग्रहण परिषदा सार्ध त्रिलक्षाधिक कोटि रूप्यक मूल्यस्य प्रस्तावाः स्वीकृताः। इंडिया एआई इम्पैक्ट इति शिखर सम्मेलनाय प्रधानमंत्री मोदी वर्यस्य आमंत्रणे ब्राजील देशस्य राष्ट्रपतिः लुला डा सिल्वा अस्मिन् मासे भारतम् आगमिष्यति। अपि च एफआईएच प्रो लीग हॉकी इति क्रीडायां भारतीय पुरुष दलम् अद्य राउरकेला नगरे अर्जेंटीना देशेन सह क्रीडति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् वित्तमन्त्री निर्मला सीतारामनवर्या लोकसभायां स्वीयाभिभाषणे विषयेऽस्मिन् व्यापक विवरणं प्रदत्तवती यत् अस्य वर्षस्य आयव्ययकेन देशस्य आर्थिक क्षेत्रेषु कीदृशानि परिवर्तनानि आगमिष्यन्ति। लोकसभायाम् आयव्ययके वित्तमन्त्रिणः प्रदत्तस्य उत्तरस्य वीडियो इति चलच्चित्रं सामाजिकान्तर्जालीयपटले विनिमयीकुर्वन् श्रीमोदिना उक्तं यत् तया रिफॉर्म एक्सप्रेस इत्यस्मिन् सूक्ष्म लघु मध्यम उद्यम एमएसएमई इति समर्थनं कौशलविकासं भारतस्य भावि भविष्यस्य आधारभूत संरचनां च संवर्धनाय शिक्षादि विषयेषु बलं प्रदत्तमिति। अद्य राज्यसभायां सत्रस्यास्य केन्द्रीय आयव्यय संकल्पनेति विषये परिचर्चा पुनः समारब्धा। चर्चायां भागं गृह्णन् भाजपेति दलस्य नेता मदन राठौरः अवदत् यत् भारतस्य अर्थव्यवस्था विश्वस्य चतुर्थे बृहत्तमा अर्थव्यवस्था अभवदिति। सः अवदत् यत् मोबाइल इति जंगम दूरवाण्याः विनिर्माण क्षेत्रे भारतमधुना विश्वस्य द्वितीयः बृहत्तमः उत्पादकः सञ्जातमस्ति। भाजपेति दलस्य शम्भु सरण पटेलः केन्द्रीय आयव्ययपत्रं प्रशंसयन् उक्तवान् यत् एतत् देशवासिनाम् अपेक्षां पूरयिष्यति इति। पूर्वं केन्द्रीयमन्त्री डॉ एल्मुरुगनः सार्वजनिक लेखोपक्रम समित्यां सप्त सदस्यानां निर्वाचनस्य प्रस्तावं प्रेषितवान्, यद्धि ध्वनिमतेन स्वीकृतम्। एससी एसटी इति कल्याण समितेः दश सदस्यानां निर्वाचनस्य प्रस्तावः अपि सभया स्वीकृतम्। अनेनैव सह लोकसभायाम् औद्योगिक सम्बन्ध संहितायाः संशोधनात्मक विधेयकमपि स्वीकृतम्, यस्योद्देश्यमस्ति पूर्वतन श्रम विधानानां निरन्तरतायाः विषये भविष्ये कस्याः अपि जटिलतायाः निवारणमिति। रक्षाधिग्रहण परिषदा सशस्त्र बलानां क्षमताभिवर्धनाय सार्ध त्रिलक्षाधिक कोटि रूप्यक मूल्यस्य प्रस्तावाः स्वीकृताः। रक्षामन्त्रालयेन सूचितं यत् भारतीय वायुदलेन बहुभूमिका युक्त युद्ध विमानानां राफेल विमानानां युद्ध क्षिपणीनां वायुनौकायान आधारित उच्च ऊर्ध्वता स्यूडो उपग्रहस्य क्रयणाय च आवश्यकतां स्वीकर्तुम् अनुमति दत्ता अस्ति इति। केन्द्रीय मन्त्री प्रह्लाद जोशी अद्य आरोपितवान् यत् लोकसभायां विपक्षस्य नेता राहुल गांधी सदने तथ्य साक्ष्ययोः अभावे अपि वक्तव्यं करोति इति। संसद परिसरे वार्ताकारैः सह वार्तालापं कुर्वन् मन्त्री अवदत् यत् राहुल गांधिनं विरुध्य विशेषाधिकार प्रस्ताव विषये निर्णयः संसदीय कार्यमन्त्रालयाधीनः अस्ति इति। सः अवदत् यत् श्रीगांधी लोकसभायां सभायाः बहिः वा अपरिपक्वरूपेण व्यवहरते। ह्यः संसदीय कार्यमन्त्री किरेन रिजिजु अवदत् यत् आयव्ययिकचर्चायाः समये लोकसभां भ्रामयितुम् आधाररहितवक्तव्यकृतवतां विपक्षनेतॄणां विरुद्धं भाजपेति दलं विशेषाधिकार प्रस्तावम् आनयति इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। श्रम वित्यवसर राज्य मंत्री शोभा करंदलजे अवदत् यत् विगत द्विवर्षयोः जम्मू कश्मीरस्य कर्मचारी भविष्य निधि संघटनायां ईपीएफओ 6.1 लक्षतः अधिकाः नूतन अभिदाताः योजिताः सन्ति। जम्मू कश्मीरस्य निरुद्योगस्य विषये राज्यसभायां प्रश्नोत्तरकाले उत्तरं ददन्ती मंत्री अवदत् यत् देशे एमएसएमई इति क्षेत्रस्य औपचारिकतायै सर्वकारः कार्यं कुर्वन् अस्ति इति। प्रधानमंत्री नरेन्द्र मोदी श्वः राष्ट्रिय राजधान्यां सेवातीर्थेति भवन संकुलस्य अनावरणं करिष्यति। ततः परं प्रधानमंत्री औपचारिक रूपेण सेवातीर्थस्य अथ कर्तव्य भवन प्रथम द्वितीययोः उद्घाटनमपि करिष्यति। सायंकाले च सेवातीर्थे सार्वजनिक कार्यक्रमम् अपि संबोधयिष्यति। ऊर्जा राज्यमंत्री श्रीपद येशो नाइकः अवदत् यत् भारतं विद्युत अभाव देशात् विद्युत अधिशेष देशत्वेन अभवत्। लोकसभायाम् अद्य अनुपूरक प्रश्नानाम् उत्तरं ददता श्रीनाइकेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे 2014-2020 विद्युत क्षेत्रे अनेकानि परिष्काराणि कृतानि सन्ति।
माननीय प्रधानमंत्री नरेंद्र भाई मोदी जी के नेतृत्व में वर्ष 2014 से पावर सेक्टर में व्यापक ट्रांसफॉर्मेशन रिफॉर्म्स किए गए हैं। आज भारत एक पावर डेफिसिट जो कंट्री है राष्ट्र से आगे बढ़कर पावर सफिशिएंट ही नहीं बल्कि पावर सरप्लस राष्ट्र बना हुआ है।
वस्त्रोद्योग भारत अमेरिका देशयोः मध्ये सञ्जातायाः अन्तरिम व्यापार सन्धेः प्रशंसाम करोत्। आलोक इंडस्ट्रीज लिमिटेड इत्यस्य निर्देशकः रिलायंस इंडस्ट्रीज लिमिटेड इत्यस्य अध्यक्षः अनिल राजवंशी इत्येषश्च अवदताम यत् अनया सन्ध्या भारत अमेरिका देशयोः मध्ये व्यापारः वर्धिष्यति इति। ताभ्यामुक्तं यत् अनेन व्यवहारेण वस्त्रक्षेत्रस्य 4.25 कोट्यधिकाः जनाः उपकृताः भविष्यन्ति इति। बांग्लादेशस्य 3rd राष्ट्रियसंसदीय निर्वाचनाय जनमतसंग्रहाय च मतदानं कठोरसुरक्षायां प्रचलति। मतदानं प्रातः 7:30 आरभ्य सायं 4:15 भविष्यति। 31 निर्वाचनक्षेत्रेभ्यः निर्वाचनं 7,40,000 मतदान केन्द्रेषु भविष्यति। नूतनस्य सर्वकारस्य निर्वाचनेन सह मतदातारः जुलाई चार्टर इत्यस्यान्तर्गतं प्रस्तावितानां संवैधानिकानां संस्थागतानां च परिष्काराणां विषये निर्णयं कुर्वन्ति। यद्यपि विमर्शकानां मतेन बहुविध परिष्कारेभ्यः एकेन आम् न वेति प्रश्नोत्तर रूपेण संयोजयित्वा मतदातृचयनं परिमितं भवतीति। 7.7 लक्षोत्तर 12 कोट्यधिकाः मतदातारः मतदानार्थं पात्रत्वं अधिगताः सन्ति। निर्वाचनं इदं ध्यात्वा बांग्लादेशस्य सीमावर्तिषु समीपस्थेषु मण्डलेषु च कठोर सुरक्षा व्यवस्था कृता अस्ति। सीमा सुरक्षा बलस्य आरक्षकाः कर्मचारिणश्च नैरन्तर्येण निरीक्षणरताः सन्ति। 17-सदस्यीय यूरोपीय संघस्य नेतारः अद्य बेल्जियम देशस्य 16वीं शताब्द्याः ऑल्डेन वैसेन दुर्गे समूहस्य भावी कार्यनीतेः विषये चर्चां कर्तुं वर्धमान वैश्विक समाह्वानानां मध्ये समागच्छन्ति। ब्राजील देशस्य राष्ट्रपतिः लुइस इनासियो लुला डा सिल्वा नवदिल्ल्यां आगामी इंडिया एआई इम्पैक्ट इति शिखर सम्मेलनाय प्रधानमन्त्रिणः नरेन्द्र मोदिनः आमन्त्रणे अस्मिन् मासे 18 दिनाङ्कादारभ्य फरवरी मासस्य 22 दिनाङ्कपर्यन्तं भारतस्य राजकीय यात्रायां भविष्यति। अद्य राष्ट्रिय राजधान्यां प्रसारमाध्यमान् सम्बोधयन् विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् श्री लुला डा सिल्वा वर्येण सह नैके मन्त्रिणः वाणिज्य प्रतिनिधयश्च भविष्यन्ति। फरवरी मासस्य 21 दिनाङ्के द्वैपाक्षिकं वार्तालापं भविष्यति। तस्य आतिथ्यं राष्ट्रपतिपदासीनया द्रौपदी मुर्मू वर्यया क्रियते इति सः अवदत्। तेनोदीरितं यत् फ्रांस देशस्य राष्ट्रपतिः इमैनुअल मैक्रों अपि शिखर सम्मेलनाय 3-दिवसीयाधिकारिक यात्रायां भविष्यति। एफआईएच इति प्रो लीग पुरुष हॉकी इति क्रीडायां हरमनप्रीत सिंह इत्यस्य नेतृत्वे भारतीय दलम् अद्य ओडिशायां अर्जेंटीना देशेन सह क्रीडिष्यति इति वार्ताः।